ಚಂದ್ರಮಾ ಸ್ವಂ ಬ್ರಹ್ಮ ಭೂರ್ಭುವಃ तदनन्तरम् अनुस्वारः परतरः अर्धे लुलसितम् तारेण हृद्धम् एतत्तव मनुस्वरूपम् गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चाञ्चरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् सगुंहिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निषद्गायत्री छन्दः गणपते देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशधारिणम् रथम् च वरदम् हस्तैर्बिभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैर्सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृते पुरुषात् परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम्बरः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः भद्रम् कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर्यचत्रा स्थिरैरङ्गैः सुष्ठुवागुंसस्तनुभिः व्यशेम देवहितैयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नः सार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः हिरण्यगर्भस्तमवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदा आधार पृथिवीम्भ्यामुते माम् कस्मै देवाय हविषा विदेम य आत्मदा फलदायस्य विश्व उपासते प्रशिषै यस्य देवाः यस्य छायामृतै यस्य मृत्युः कस्मै देवाय हविषा विदेम यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव य एषे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विदेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रसया सहाहुः यस्येमा प्रदिशो यस्य बाहुः कस्मै देवाय हविषा विदेम येन द्यौरुग्रा पृथिवी च दृढा येन स्वस्तभितैर्येन नाकः यो अन्तरिक्षे रजसो विमान कस्मै देवाय हविषा विदेम यम् ग्रन्थस्य अवसातस्य भाने अभ्यैक्षेताम् मनसा रेजमाने यत्रादिसूर उदितो विभाति कस्मै देवाय हविषा विदेम आपो हयद्बृहतिर्विश्वमायन् गर्भम् ददा ततो देवानाम् समावर्तता सुरेक कस्मै देवाय हविषा विदेम यश्चिदापो महिला पर्यपश्यत् दक्षम् ददानाम् जनयन्ते यज्ञम् यो देवेश्वरी देव एक आसीकस्मै देवाय हविषा विदेम मानो हिंसे जनिताय पृथिव्यायो वा दिवम् सत्यधर्मा जजान यश्चापश्चन्द्रा बृहतिर्जचान कस्मै देवाय हविषा विदेम प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् स्याम पतयोरयेण निधनपतये नमः निधनपतादिवाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गग्रस्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भवस्व भवोद्धवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः करविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्यो अघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशान सर्वविद्यानाम् ईश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्म पतये अम्बिका पतय उमा पतये पशुपतये नमो नमः रुदगुं सत्यं परं ब्रह्म पुरुषं कृष्ण पिंगलं ओर्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रस्तन्महो नमो नमः विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं जयत सर्वो हेश रुद्रस्तस्मै रुद्राय नमो अस्तु कद्रुद्राय प्रचेतसे मेरुष्टमायतव्यसे भोचेमशन्तमगुं हृदे सर्वो हेश रुद्रस्तस्मै रुद्राय नमो अस्तु तच्छयो रावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं चिगातु भेषजम् शन्नो असु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षपुरुषः सहस्राक्षः सहस्रपात् स भूमिं विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुं सर्वम् यद्भूतैर्यच्च भव्यम् हुतामृतत्वश्लेषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायावश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि त्रिपादोर्ध्व उदयत्पुरुषः पादोऽस्येह भवान् पुनः ततो विश्वं व्यक्रामत साशनान शरे अभि तस्मात् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चात् भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वद वसन्तो अस्यासीदाजम् ग्रीष्म इद्म शरद्दमिः सप्तास्यासन् परिधयः त्रिसप्तः समिध कृताः देवायद्यन्यन्तन्वानाः अवध्नन् पुरुषम् पशुम् तैयज्ञम् बर्हिषे प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्मात् यज्ञात् सर्वहुतः संवृतम् पृषदाजम् पशोगुस्तागुश्चक्रे वायव्याना आरण्यान् ग्राम्याश्च ये तस्मात् यज्ञात् सर्वहुतः नृचसामानि जग्निरे छन्दापुंसि जग्निरे तस्मात् लक्ष्माज्जाता अजावयः यत्पुरुषम् व्यददुः कतिदा व्यकल्पयन् मुखम् किमस्य कौ बाहु का गुरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरुदस्य यद्वैश्यः पद्म्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षु सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेषणौ समवर्तत पद्म्याम् भूमि दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन् यदासे दाता पुरस्ताद्यमुदा जहार शक्र प्रविद्वान् प्रदिशस्य तस्रः तमेवम् विद्वान्नमृत इह भवति नान्यपन्हा अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवा तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यसम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाचानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिशरधिगर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीना पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मणे रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे हेष्यते लक्ष्मेश्च पत्न्यः अहो रात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अवम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शन् चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्र परमा देवी शतमूला शताङ्कुरा सर्वगुं हरतु मे पापम् दुर्वातु स्वप्ननाशने काण्डात् काण्डात् प्ररोहन्ति परुषः परुषः परि देवानो दुर्विव्रतनुसहस्रेण शतेन च याचते न प्रतनोषि सहस्रेण विरोहसि तस्यास्ते देवेशके विदेम हविषा वयम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसा धारयिष्यामि रक्षस्व माम् पदे पदे संसमिद्युवसे दृशन्नग्ने विश्वान्यर्य इरस्पदे समिध्यसे तनो वसून्याभर सङ्गच्छध्वं संवदध्वं सम्भो मनांसि जानताम् देवा भागैर्यथा पूर्वे सञ्जाना उपासते समानो मन्त्रस्समिते समानि समानं मनस्सः चित्तमेष समानं मन्त्रमभिमन्द्र एव समाने नवो हविषा जुहोमि समाने वाकोति समान हृदयानि वः समानमस्तु वो मनो यथा वस्तु सः सति स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेण मार्गेण महिं महिषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु।